ह्यः नमस्कारः बुद्धिकौमुदी कक्षां प्रति भवतां सर्वेषां हार्दं स्वागतम्। पूर्वतनकक्षायां वयं सुबन्ताः इत्यस्मिन् अध्याये कांश्चन शब्दान् दृष्टवन्तः। अस्मिन्नपि कालांशे कानिचन सुबन्तानि पश्यामः, पश्चात् क्रियापदानि इति अध्यायं वयं प्रविशामः। अभिभावकाः छात्राणां विद्याभ्यासविषये अवधानवन्तः स्युः। अभिभावकाः इति अस्थाने, प्रायः प्रादेशिकभाषायाम् अयम् अभिभावकशब्दः अस्ति, सः अस्थाने संस्कृतभाषायां प्रयुज्यते। पालकाः, पोषकाः, पितरः इत्यादयः शब्दाः अत्र प्रयोक्तुम् अर्हाः। अभिभावकशब्देन अत्र पालनपोषणकर्तारः वक्तुमिष्टाः, किन्तु तादृशस्य अर्थस्य अभिव्यञ्जने अभिभावकपदस्य सामर्थ्यं नास्ति इति ज्ञायते। अभि इति उपसर्गेण युक्तः भूधातुः तिरस्कारः इति अर्थं द्योतयति, न तु पोषणं पोषणाद्यर्थम्। अमरकोशेऽपि उक्तम् अत्तगर्वः अभिभूतः स्यादिति। अन्येऽपि कोशकाराः एतादृशमेव अर्थं लिखितवन्तः सन्ति। अतः अभिभावकाः छात्राणां विद्याभ्यासविषये अवधानवन्तः स्युः इति प्रयोगः न समीचीनः। अभिभावकशब्दः तु संस्कृतशब्दः एव, किन्तु सः पोषकः, पालकः इत्याद्यर्थे नास्ति, अतः तस्य साधुत्वं वयं वक्तुं न शक्नुमः। अयमपि प्रसिद्धः शब्दः, प्रायः बहुत्र प्रादेशिकभाषासु प्रयुज्यते। सः नितरां चाणाक्षः अस्ति। चाणाक्षः इति अपशब्दः, चतुरः, निपुणः इति वा पदान्तरं वा प्रयोक्तव्यम्। अत्र वक्ता चतुरमतित्वं नैपुण्यं वा निर्देष्टुम् इष्यते। चाणाक्षः इति तु संस्कृतः शब्दः न, अतः सः परिहरणीयः। चतुरः, निपुणः इत्यादयः शब्दाः यथायोग्यं प्रयोक्तव्याः। पञ्चवादनपर्यन्तम् एतत् कार्यं समापनीयम् अस्ति मया इति बहुधा प्रादेशिकभाषायां प्रादेशिकभाषाप्रभावतः संस्कृतेन एवं प्रयुज्यते। पञ्चवादनाभ्यन्तरे इति प्रयोक्तव्यम्। पञ्चवादनपर्यन्तम् इति एषा संस्कृतशैली न। पञ्चवादनात् पूर्वं यदा कदाचित् एतत् कार्यं समापनीयम् इति वाक्यप्रयोक्तुः आशयः। अयमेव आशयः प्रायः हिन्दीभाषादिषु पाञ्च बजे तक् इति वाक्येन प्रयुज्यते। तस्य तादृशस्य वाक्यस्य अनुवादः पञ्चवादनपर्यन्तम् इति। अत्र शब्दानुवादः एव कृतः दृश्यते, न तु भावानुवादः। पर्यन्त इति शब्दः सीमां निर्दिशति। अवधिनिर्देश अवसरे तस्य प्रयोगः भवितुम् अर्हति। अत्र तु अवधिनिर्देशः न इष्टः, अतः अभ्यन्तरशब्दः शब्दस्य प्रयोगः अत्र समुचितः। पञ्चवादनाभ्यन्तरे इति प्रयोक्तुम् उचितम्। वस्तूनि एकत्रीकृत्य नयतु भवति। एकत्रीकृत्य इति अपशब्दः, सङ्गृह्य, समाहृत्य इति वा प्रयोक्तव्यम्। एकत्रीकृत्य इत्यत्र क्षिप्रत्ययः अस्ति। क्षिप्रत्ययविषये पूर्वम् अस्माभिः किञ्चित् ज्ञातमेव अस्ति, अत्र किञ्चित् विस्तरेण पश्यामः। क्षिप्रत्ययस्य विधायकं सूत्रमस्ति कृभ्वस्ति योगे सम्पद्यकर्तरि च्वेहि इति। तस्य विवरणं तु विकारात्मकताम् विकारात्मताम् प्राप्नुवत्याम् प्रकृतौ वर्तमानात् विकारशब्दात् स्वार्थे च्विर्वास्यात् करोत्यादिभिः योगे इति। तस्य टिप्पणी एवं लिखिता, येन रूपेण प्राकभूतं तेन रूपेण तस्य भावः इति फलितः अर्थः। एवञ्च यत्र प्रकृतिस्वरूपमेव विकाररूपताम् आपद्यमानं विवक्षते तत्र अयं प्रत्ययः। संक्षेपेण एवं वक्तुं शक्यते, यत् पूर्वं नासीत् तत् यदि पुनः जायते तस्य नाम तादृशः यदा प्रयोगः भवति तस्य अर्थः तथा भवति। यथा इदानीम् उदाहरणार्थं सरलीकरोति, दीर्घीकरोति, स्पष्टीकरोति, विशदीकरोति इति। अत्र सर्वत्रापि असरलं सरलं करोति, सरलीकरोति, अदीर्घं दीर्घं करोति, दीर्घीकरोति, अस्पष्टं स्पष्टं करोति, स्पष्टीकरोति, अविशदं विशदं करोति, विशदीकरोति इति। एतानि सर्वाणि उदाहरणानि। किन्तु एकत्रीकरोति इति विषये तथा वयम् अर्थं वक्तुं न शक्नुमः। एकत्रीकरोति इत्यस्य विवक्षितः अर्थः तु एकत्र स्थापयति इति, आनयति इति वा। अत्र प्रकृतिविकृतिभावः न विवक्षितः, अतः च्वि प्रत्ययः अस्थाने। एषः प्रयोगः बहुभिः संस्कृतज्ञैः एव क्रियमाणः दृश्यते, तत्तु अनवधानात् एव। प्रकृतिप्रत्ययविधायकसूत्रादिकं यैः न परिशीलितं तैः एतादृशः प्रयोगः क्रियमाणः दृश्यते। अतः वस्तूनि एकत्रीकृत्य नयति इति प्रयोगः न समीचीनः, सङ्गृह्य इति प्रयोक्तव्यम्। एतावत्पर्यन्तं यत् उक्तं तत् क्रोढीकृत्य वदामि। अत्र कश्चन दोषः अस्ति, क्रोढीकृत्य इति भवेत्। क्रोढीकृत्य, क्रोढीकृत्य इति अयं सर्वोऽपि अपशब्दः एव। सङ्गृह्य इति प्रयोगः भवितुम् अर्हति। उक्तस्य अयं सारः इति वाक्यान्तरं वा प्रयोक्तव्यम्। अत्र अस्माभिः क्रोडपदस्य अर्थः ज्ञातव्यः। क्रोडः इत्यस्य अङ्क वक्ष अवरोहादयः अर्थाः। क्रोडशनौ सूकरेव न पुमानङ्कवक्षसोः इति मेदिनीकोशः। क्रोडीकरणं नाम आलिङ्गनं, सङ्ग्रहणं, सम्मेलनम् इत्यादयः अर्थाः न सन्ति। तस्मात् क्रोडीकृत्य इति प्रयोगः सङ्ग्रहार्थे अयुक्तः एव। रोढ़ीकृत्य इत्येतत् महाप्राणरूपं तु सर्वथा असाधु एव। बान्धवाः कुलमिच्छन्ति मृष्टान्नम् इतरे जनाः इति किञ्चन आभाणकं प्रसिद्धम् अस्ति। तत्र मिष्टान्नम् इति प्रयोक्तव्यम्। मिष्टं नाम मधुररससहितम्। अत्र धातुः मिषु इति धातुः, सेवनम् इति अर्थः, त प्रत्ययः। विवाहादिषु मिष्टम् एव इष्यते जनैः। शुद्ध्यर्थकात् ब्रजधातोः तप्रत्यये मृष्टम् इति रूपम्। तस्य तथा च अर्थः भवेत् क्षालितम्, शुद्धम् इत्यादिकम्। स च अर्थः अत्र न अभिप्रेतः, अतः मिष्टम् इति प्रयोक्तव्यम्, न तु मृष्टम् इति। प्रादेशिकभाषा प्रभावतः इदं वाक्यं प्रयुज्यते निधानेन आगच्छति यानम् इति। मन्दम् इति प्रयोक्तव्यम्। नि इत्यनेन उपसर्गेण युक्तः धानि धातुः स्थापनम् इत्यादीन् अर्थान् अवगमयति। उपरि यद्वाक्यमत्र उक्तम् तत्र तु मन्दगतिः इत्यर्थः एव अपेक्षितः। तादृशस्य अर्थस्य ज्ञापनाय निधानशब्दः न समर्थः, अतः मन्दगतिः इत्यर्थे निधानशब्दस्य प्रयोगः न समीचीनः। न्यायवादी अपराधं साधारं निरूपयत्। अत्र सप्रमाणम् इति वक्तव्यम्। आधारपदस्य यः प्रसिद्धः अर्थः अस्ति आश्रयः, साहाय्यम् इत्यादयः सर्वैः ज्ञाताः एव। प्रमाणस्य अपरपर्यायत्वेन तस्य प्रयोगः केनापि कोशकारेण न सूचितः, अतः अपराधनिरूपणावसरे प्रमाणम् एव अपेक्षते, अतः सप्रमाणम् इति शब्दस्य प्रयोगः समीचीनः। कार्यक्रमस्य अन्ते छात्रैः मनोरञ्जनकार्यक्रमाः प्रदर्शिताः। मनोरञ्जनम् इति प्रयोक्तव्यम्। मनोरञ्जनम् अपशब्दः। मनःशब्दः सकारान्तः। रञ्जनशब्दे परे सकारस्य रेफे उत्वेगुणे च मनोरञ्जनम् इति रूपम्। विसर्गस्य लोपः तु नास्ति केनापि सूत्रेण। मनःशब्दः अकारान्तः इति न, अतः मनरञ्जनम् इति रूपं न साधु। मनःशब्दः इव अन्ये केचन शब्दाः सकारान्ताः भवन्ति, तैः सह समाससमये विसर्गस्य विकारविषये नाम अन्यरूपाणां विषये अवधानं भवेत्। कानिचन उदाहरणानि पश्यामः। मनोचिकित्सा इति अशुद्धम्, मनश्चिकित्सा इति शुद्धम्, मनोप्रवृत्तिः इति अशुद्धम्, मनःप्रवृत्तिः इति शुद्धम्, मनोप्रकृतिः इति अशुद्धम्, मनःप्रकृतिः इति शुद्धम्, मनैक्यम् इति अशुद्धम्, मन ऐक्यम् इति शुद्धम्, मनोपरिवर्तनमिति अशुद्धम्, मनःपरिवर्तनमिति शुद्धम्, ओजोपूर्णम् इति अशुद्धम्, ओजःपूर्णम् इति शुद्धम्, मनोल्लासः इति अशुद्धम्, मन उल्लासः इति शुद्धम्। यदि सकारान्तस्य मनःशब्दस्य प्रयोगे क्लेशः तर्हि मानसशब्दः प्रयुज्यताम्। मनो मानसयोः अर्थः तु समानः। मानसशब्दः अकारान्तः, तदा मानसचिकित्सा, मानसोल्लासः, मनसप्रकृतिः इत्यादीनि रूपाणि सिद्ध्यन्ति। बालः परमालसी अस्ति, अलसः इति प्रयोक्तव्यम्। न लसति अलसः, यसुशेषणे शेषणार्थका लसधातो अश्प्रत्ययः। आलसी इति रूपं प्रादेशिकभाषायां न तु संस्कृते, अतः सः शब्दः परिहरणीयः एव। एवम् अस्मिन् चतुर्थे अध्याये बहूनि सुबन्धानि, प्रायः उपद्विशतं सुबन्तानि वयं दृष्टवन्तः। उक्तेषु एतेषु सुबन्तेषु केऽपि सन्देहाः सन्ति चेत् कृपया हस्तम् उत्तोलयन्तु, नो चेत् अग्रिमम् अध्यायं वयं प्रविशामः। अग्रिमम् अध्यायं वयम् इदानीं प्रविशामः. अग्रिमः अध्यायः अस्ति अध्यायस्य नाम्नः लेखनावसरे कश्चन दोषः अस्ति. पञ्चमः अध्यायः विभक्त्यादयः इति प्रक्रियापदानि इति षष्ठः अध्यायः. अतः अस्य नाम अन्यथा जातमस्ति. यदा जालपुटे आरोप्यते तदा तस्य परिष्कारं कुर्मः. अत्र अध्यायस्य नाम विभक्त्यादयः इति भवितव्यं, क्रियापदानि इति न भवितव्यम् अत्र. विभक्त्यादयः इति अध्यायस्य नाम. मम पुत्रः पण्डितः भवितव्यः इति माता चिन्तयति इति दोषवशात् तथा प्रयुज्यते. मम पुत्रेण पण्डितेन भवितव्यम् इति वाक्यरचना भवेत्. भवितव्यम् इत्यत्र भावे तव्यत् प्रत्ययः, भूधातुः अकर्मकः. अत्र भावे औत्सर्गिकम् एकवचनम् श्रीभत्वम् च, अतः भवितव्यम् इति एकवचनम् नपुंसकत्वम् क्लीब इति नपुंसकम् इत्यर्थः. अत्र कर्ता केनापि प्रत्ययेन न उक्तः इत्यतः पुत्रपदात् पण्डितपदाच्च तृतीया विभक्तिः भवति. अतः मम पुत्रेण पण्डितेन भवितव्यम् इति वाक्यविन्यासः समीचीनः. अन्यः अपि वाक्यप्रयोगः एवं दृश्यते, त्वया रामः इव पण्डितेन भवितव्यम् इति. रामेण इव इति प्रयोक्तव्यम्. पण्डितेन भवितव्यम् इति वाक्यविन्यासः साधु विवरणं तु पूर्वतनवाक्ये उक्तम्. अत्र रामस्य सादृश्यम् उच्यते. उपमान उपमेययोः समानविभक्तिः भवेत्. अतः उपमानात् रामपदादपि तृतीया एव स्यात्, न तु प्रथमा. अतः रामेण इव इति प्रयोक्तव्यम्. अनुजः इव अग्रजाय अपि क्षीरं देहि इति दोषयुक्तः प्रयोगः. अनुजाय इव इति प्रयोक्तव्यम्. अग्रजाय इति चतुर्थी विभक्तिः अत्र अस्ति. अतः अनुजशब्दादपि चतुर्थी विभक्तिः एव. यथास्थितस्य अर्थः तु अनुजः इव यः अस्ति तस्मै अग्रजाय इति भवितुम् अर्हति. स च अर्थः अत्र न इष्टः. अग्रजस्य यथा सम्प्रदानसंज्ञा तथैव अनुजस्य अपि सम्प्रदानसंज्ञा. अतः अनुजपदादपि चतुर्थी एव. ये दुराचारं कुर्वन्ति तेषां नाशः अवश्यं भाव्यः. नाशः भाव्यः इति अशुद्धः प्रयोगः. नाशेन भाव्यम् इति प्रयोगः उचितः। भाव्यम् इत्यत्र भावे अवश्यं भावार्थे न्यत् प्रत्ययः भवति ओरावश्यके इति सूत्रेण। अत्रापि भावार्थे एकवचनम् अपुंसकत्वं च भवति, अतः भाव्यम् इति रूपम्। केनापि प्रत्ययेन कर्तुः नोक्तत्वात् तृतीया विभक्तिः भवति, अतः नाशेन भाव्यम् इति साधुः प्रयोगः। भवन्तः सर्वे एवं कुर्वन्ति चेत् भवताम् उन्नतिः भवितुं न शक्या। उन्नतिः भवितुं न शक्या इति वाक्यम् अशुद्धम्। उन्नत्या भवितुं शक्यम् इति प्रयोक्तव्यम्। शकृधातोः भावे यत्प्रत्ययः शकिसहोश्च इति सूत्रेण। भावे यत्प्रत्ययः विहितः इति कारणतः एकवचनं नपुंसकलिङ्गं च भवति। अतः शक्यम् इति रूपम्। एतत् शक्यपदं कर्तारं न बोधयति। अतः यतः भावे प्रत्ययः विहितः। तुमुन्नन्तमपि कर्तारं न बोधयति भूधातोः अकर्मकत्वात्। केनापि कर्तुः अनुक्तत्वात् प्रथमा न भवति, अपि तु तृतीया एव। अतः उन्नत्या इति तृतीयान्तं रूपं सिद्धम्। अतः उन्नत्या भवितुं शक्यम् इति प्रयोगः एव साधुः। शिशुना तेन दशशब्दाः वक्तुं शक्यन्ते। शब्दाः वक्तुं शक्यन्ते इति वाक्यं साधु एव। शक्यते इत्यत्र कर्मणि यत् प्रत्ययः। कर्मभूतस्य शब्दाः इत्यस्य शक्यन्ते इत्यत्र अन्वयः। कर्मणः बहुत्वे क्रियापदस्यापि बहुवचनान्तत्वम्। शब्दाः इति बहुवचनमस्ति, अतः क्रिया अपि शक्यन्ते इति बहुवचनमेव। कर्मणि प्रयोगस्य नियमाः अत्र स्मरणीयाः। अत्र तिङ्प्रत्ययेन कर्म उक्तमित्यतः कर्मणः प्रथमाविभक्तिः भवति, अतः शब्दाः वक्तुं शक्यन्ते इति प्रयोगः अध्यापकेन दशश्लोकान् पाठयितुं शक्यते। श्लोकान् पाठयितुं शक्यते इति वाक्यम् शुद्धमेव। अत्र श्लोकानित्यस्य पाठयितुम् इत्यत्र अन्वयः। बहुवचनान्तेन श्लोकानिति शब्दः अस्ति, शक्यते इत्यत्र अन्वयः न भवति, अतः बहुवचनान्तत्वेन श्रवणं नास्ति। अस्मिन् वाक्ये शक्यते इत्यत्र भावे यक् प्रत्ययः, शक्यते इति एषः अकर्मकः। अत्र अस्माभिः किञ्चित् ज्ञातव्यमस्ति। सर्वैः मम ध्वनिः श्रूयते खलु? यदि न श्रूयते कृपया सूचयन्तु। अत्र कश्चन सन्देहः भवति, शक्यते इत्यत्र यक् प्रत्ययः अस्ति, सः यक् प्रत्ययः भावार्थे उत कर्मार्थे इति। यतः पूर्वतने वाक्ये, अस्मिन् वाक्ये च भेदः अस्ति। अत्र शक्यते इत्यत्र भावे यक् प्रत्ययः, पूर्वतने च कर्मणि यक्। अतः शक्तधातोः यक् प्रत्ययः भावे उत कर्मणि इति प्रश्नः। तदा माधवीयधातुवृत्तिः इति ग्रन्थे एवं लिख्यते, विभाषाभावादिकर्मणोः इत्यत्र हरदत्तः, यद्यपि केवलः शकिः अकर्मकः, तथापि तुमुन् इति क्रियावाचकः यदा भवति तदा सकर्मकः भवति इति तत्र लिखितम्। अतः शक्लधातुः कर्मणि भावे च यत् प्रत्ययं प्राप्तुं शक्नोति। श्लोकान् पाठयितुं शक्यते इत्यत्र श्लोकपदस्य तुमुन्नन्तपदे अन्वयः, अतः भावे यक्। शब्दाः वक्तुं शक्यन्ते इत्यत्र कर्मणः शकधातोन्वयः, सः कर्मणि यक्। एवम् उभयतापि प्रयोगः कर्तुं शक्यः, प्रयत्नः कर्तुं शक्यः, प्रयत्नं कर्तुं शक्यम् इति उभयतापि साधु इति अस्माभिः अवगन्तव्यम्। कतिचित् दिनेषु अतीतेषु वर्षाकालः सम्प्राप्तः। कतिचित् दिनेषु इति प्रयोगः अशुद्धः। कतिषुचित् दिनेषु इति वक्तव्यम्, अथवा कतिपयेषु दिनेषु इति। दिनेषु इति सप्तम्यन्तं पदम्, तत् विशेष्यम्। यत् विशेषणभूतं कति इति तद् प्रथमान्तम्। अतः तस्मादपि सप्तमी विभक्तिः भवति। प्रसिद्धमस्ति, प्रसिद्धः नियमः अस्ति, यल्लिङ्गं यद्वचनं सा च विभक्तिर्विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि इति। अतः तत्रापि सप्तमी एव। अतः कतिषुचित् इति सप्तम्यन्तं रूपम् एव सङ्गच्छते। कतिचित् इत्यत्र पदद्वयमस्ति। कतिशब्दः चित् च। कतिशब्दः बहुवचनान्तः। सप्तसु विभक्तिषु रूपभेदं प्राप्नोति। चित् इति अव्ययम्। कतिशब्देन अनुप्रयोगः। तावन्मात्रेण चित् इत्यस्य कतिशब्दस्य अपि न अव्ययत्वम्। एवमेव अन्यः प्रयोगः, कतिचन दिनानन्तरं सः उद्योगं प्राप्तवान्। कतिचन दिनानन्तरम् इति समासः दुष्टः। कतीनाञ्चन दिनानाम् अनन्तरम् इति प्रयोगः करणीयः। जनशब्दः क्वापि समासम् अनुप्रविशन् न दृष्टः। अतः अत्र समासः अनुचितः। सर्वत्रापि चित् जन इति प्रत्ययौ पृथक् पदे एव। यस्तप्रयोगः न करणीयः। कतिशब्दात् दिनशब्दाच्च षष्टिविभक्तिः योजनीया। कतिपयदिनानन्तरम् इति प्रयोगः पूर्वोक्ते स्थले युज्यते तराम्। केषाञ्चित् दिनानन्तरं सः नगरात् प्रत्यागतः इति प्रयुज्यते। केषाञ्चित् दिनानाम् अनन्तरम् इति प्रयोगः अनुचितः। केषाञ्चित् दिनानाम् अनन्तरम् इति प्रयोगः समीचीनः। दिन अनन्तरयोः अत्र समासः कृतः। अत्र यः समासः सः तत्पुरुषः। केषाञ्चित् इत्येतस्य अन्वयः दिनपदेन इष्यते। तत्र समासे एकदेशभूतत्वात् तत्र अन्वयः न सम्भवति। अतः व्यस्तप्रयोगः एव करणीयः केषाञ्चित् दिनानाम् अनन्तरम् इति। अन्यदपि प्रसिद्धं वाक्यं संस्कृते प्रयुज्यते, लोकहितं मम करणीयम् इति. मम करणीयम् इति प्रयोगः न अशास्त्रीयः. कृत्यानां कर्तरिव इति सूत्रेण कर्तुः षष्ठी विहित विकल्पेन मम करणीयम् इति वाक्यं तथा सिद्ध्यति. षष्ठ्याः अभावे तु तृतीया भवति. मया करणीयम् मम करणीयम् इति उभयमपि अतः शुद्धम् एव. आचार्य आशीः प्रार्थये. आशीः प्रार्थये इति वाक्यं दोषाय. आशिषं प्रार्थये इति प्रयोक्तव्यम्. आशिष शब्दः सकारान्तः स्त्रीलिङ्गः. एतस्मात् द्वितीया एकवचने आशिषम् इति, बहुवचने कृते आशिषः इति च रूपम्. ईकारान्तभ्रमेण आशीः कामयिता इत्यादौ समासे आशीः इति, दर्शनाच्च आशीः इति द्योशनान्तः इति भ्रान्त्या प्रयोगः क्रियते. अतः आशिषं प्रार्थये अथवा आशिषः प्रार्थये इति प्रयोगः समीचीनः. अहम् अद्य मित्रं गृहम् आहूतवान् अस्मि. मित्रं गृहम् आहूतवान् इति वाक्यं दोषाय. मित्रं गृहं प्रति आहूतवान् इति प्रयोगः वरम्. आह्वयतिः नहि द्विकर्मकः. एतस्मिन् वाक्ये मित्रं गृहम् इति कर्मद्वयं प्रयुक्तमस्ति, अतः दोषः. प्रति शब्दस्य निवेशात् प्रतियोगे तृतीया भवति इति तृतीया साधु भवति. आह्वयते स्थाने निमन्त्रयतेः इति प्रयोगः समीचीनः एव स्यात्. अतः मित्रं गृहं प्रति आहूतवान् इति प्रयोगः करणीयः. मम मित्रं नगरं प्रेषयित्वा आगतवान्. नगरं प्रति प्रेषयित्वा इति प्रयोक्तव्यम्. प्रेषृधातुः सकर्मकमात्रं न तु द्विकर्मकः. अत्र वाक्ये तु मित्रशब्दः नगरशब्दस्य कर्मत्वेन प्रयुक्तः. सकर्मकमात्रस्य कर्मद्वयं भवितुं न अर्हति. अण्यन्त अवस्थायाम् अतः नगरशब्दोत्तरं प्रतिशब्दः प्रयोक्तव्यः. प्रति इति योगे द्वितीया इति वयं जानीमः. अतः नगर शब्दोत्तरम श्रूयमाणा द्वितीय उपपन्ना भवति। अन्यथा सकर्मक मात्रस्य धातोः द्विकर्मकत्वेन प्रयोगः अनुपपन्नः एव स्यात्। अयं विषयः अधुना उक्तः अस्ति। भवन्तः द्रष्टुम् अर्हन्ति। अतः नगरं प्रति प्रेषयित्वा इति प्रयोगः करणीयः। माता शिशवे क्षीरं पाठयति। अत्र शिशवे पाठयति इति प्रयोगः दोषाय। शिशुं क्षीरं पाठयति इति प्रयोक्तव्यम्। पाणिनीयं सूत्रमस्ति गति बुद्धि प्रत्यवसानार्थ शब्द कर्मा कर्मकाणा इति किञ्चित् दीर्घं सूत्रमस्ति। तेन सूत्रेण अन्यन्तस्य कर्तुः कर्मसंज्ञा विहिता। अतः शिशुम् इति द्वितीयान्तं प्रयोक्तव्यम्। शिशुः क्षीरं पिबति। पिबति इति अण्यन्तोपेतं क्रियापदम्। पानक्रियायाः कर्ता तु शिशुः, अतः एषः अण्यन्तकर्ता इति व्यवहारः। माता शिशुं क्षीरं पाठयति इत्यत्र पाठयति इति ण्यन्तोपेतं क्रियापदम्। ण्यन्तस्य प्रयोगे अण्यन्तस्य कर्तुः शिशोः कर्मसंज्ञा। अतः शिशुं क्षीरं पाठयति इति प्रयोगः। एवमेव गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यवसानार्थकानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनां व्यवस्था ज्ञातव्या। अत्र प्रत्यवसानम् इत्यस्य भक्षणम् इति अर्थः। उदाहरणं एकैकं पश्यामः गत्यर्थकः गत्यर्थकं वाक्यं पिता पुत्रं विद्यालयं गमयति बुद्ध्यर्थकं अध्यापकः शिष्यं व्याकरणं बोधयति प्रत्यवसानार्थकं माता शिशुं क्षीरं पाययति शब्दकर्मकं अध्यापिका शिष्यां गीतं गापयति अकर्मकं माता शिशुं शाययति एवमेव गुरुः शिष्याय व्याकरणं बोधयति गुरुः शिष्याय शिष्याय व्याकरणं बोधयति शिष्याय वेदं पाठयति इति वाक्यद्वयमपि असाधु शिष्यं व्याकरणं बोधयति शिष्यं वेदं पाठयति इति प्रयोक्तव्यम् प्रथमवाक्ये बुद्ध्यर्थकधातोः द्वितीयवाक्ये शब्दकर्मकधातोः सद्भावात् गतिबुद्धि इति सूत्रेण अण्यन्तकर्तुः नाम शिष्यस्य कर्मसंज्ञा तस्मात् शिष्यम् इति द्वितीयान्तं प्रयोक्तव्यम् अतः शिष्यं व्याकरणं बोधयति शिष्यं वेदं पाठयति इति प्रयोगः समीचीनः कलाकारः प्रेक्षकेभ्यः चित्रं दर्शयति प्रेक्षकेभ्यः इति प्रयोगः न दोषाय दृशेश्च इति वार्तिकेन दर्शयतेः प्रयोगे कर्मसंज्ञा विहिता कौमुद्याः उदाहरणं तु गुरुः भक्तान् हरिं दर्शयति इति अत्र अण्यन्तकर्तुः अपि चतुर्थी दृश्यते लोके यथा शिष्टप्रयोगाः अपि सन्ति। कानिचन उदाहरणानि पश्यामः। रघुवंशे प्रयुक्तमस्ति तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः इति। धनुर्दर्शय रामाय इति होवाच पार्थिवम् इति। दर्शयामास पार्थाय परमं परमेश्वरम् इति। इत्येवम् एतस्मिन् विभक्तिः इत्यस्मिन् अध्याये 17 शब्दान् वयं दृष्टवन्तः। अग्रिमकक्षायाम् अन्यानि कतिचन विभक्ति सहितानि वाक्यानि वयं पश्यामः। यदि केऽपि सन्देहाः सन्ति कृपया अत्र अस्मिन् पत्रं प्रेषयितुम् अर्हन्ति। पूर्वतनाः पाठाः सर्वे अत्र लभ्यन्ते इति वयं भवन्तः जानन्ति एव। सर्वेभ्यः धन्यवादाः। नमस्काराः।